नमस्सर्वेभ्यः. अद्य प्रौढमनोरमायाम् अष्टाविंशः पाठः. अच्छन्धिप्रकरणस्य पुनरावर्तनम् मे मासस्य एकत्रिंशः दिनाङ्कः. येनाक्षरसमाम्नायमधिगम्य महेश्वरात् प्रश्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः. ध्यायन् ध्यायम् परम् ब्रह्मस्मारम् स्मारम् गुरोर्गिरः. सिद्धान्तकौमुदी व्याख्याम् कुर्मः प्रौढमनोरमाम्. We have completed the Achandhi Prakaranam of the Prodha Manorama, at least the main Prakarana. The Prakriti Bhava is yet to be done, but the main Achandhi Prakarana is done. So I thought we will have a recap of what we studied through the Achandhi Prakarana before we move on, because it is a pretty big Prakarana. The Samya Prakarana and the Achandhi Prakarana are the biggest in this. And you will see, I mean, as you study other Granthas, say if you go to Laghushabdendu Shekhara or any other granthas, vyakhyanas on the Siddhanta Kaumudi, these two tend to be the biggest prakarana, the ones with the most vichara. So what I thought we'll do today is, we don't have slides, we just have the text of the Achandhi Prakarana, Prodha Manorama. So each of you can read maybe say a para of it, so that you'll have a practice of reading out the Moola, and then we'll discuss briefly what we studied there, and then we'll move on. Okay? Does anybody want to volunteer to go first? You just have to read what is there in Prodha Manorama under Eco Energy. It's one paragraph on the screen. Okay, so Muthulakshmi, aren't there? Yes.
See, I have the original text, so it's not continuous.
Ah,
so
no,
then you can read.
Yeah, yeah.
Eco energy, satyahara grahaneshu, yad vachya vachya, yodha, rakshana. Dhirgat Prashisya Iti Napakat Lwajibhyaha Iti Nirdeshachya Tena Eka Shabd Tena Eka Shabdena
Ik Shabdena
Tena Ik Shabdena Sat Shastik Krishyante Yan Shabdena Sapta Bhagyamanatvena Savarnakrahagatve Api Guna Nam Abhedakatvena अनुनासिकानामपि केवलानां ग्रहणात् तो नास्ति यथासङ्ख्यम् न च लक्ष्यार्थबोधात् पूर्वं पूर्वभाविनं सख्यार्थबोधमादाय यथासङ्ख्यम् अस्ति अस्तु इति वाच्यम् इति वाच्यम् एवमपि तृतीयचतुर्थ्याभ्याम् ऋकाराभ्याम् प्रत्येकं त्रिंशत् उपस्थितौ विवर्णानां रेखादेशस्य ऋवर्णानां लादेशस्य च प्रसङ्गात् तस्मात् इह तानि अन्तर्गमसूत्रेण एव इष्टसिद्धि अनित्य
इष्टसिद्धिः इति
इष्टसिद्धिः इति अभिप्रेत्य आह स्थानतः आचर्यात् इति
अलम्. धन्यवादः. Eco energy. Kahavit. Okay, so is there a question? Paul? Yes, Paul, you have a question?
I was volunteering. Can you hear me?
Ah, yeah, yeah, sure. Yeah, I can. So maybe we'll discuss this bit and then you can read out the next part.
Oh, okay.
इको एणसि कः प्रश्नः अत्र सिद्धान्तकौमुद्यां किं लिख्यते स्थानतः अन्तर्याद् ईकारस्य यकारः सुधी उपास्यः इति स्थिते स्थानतः अन्तर्याद् ईकारस्य यकारः इति कौमुद्याः पङ्क्तिः इकः यण् अचि अचिपरे इग्वर्णानां यण्वर्णाः आदेशेन विधीयन्ते इक् इति चत्वारः वर्णाः इ उ ऋ ल यण् इत्यपि चत्वारो वर्णाः य व ऋ ल यथासङ्ख्येनैव स्थान्यादेशनिर्णयः सिद्ध्यति यथासङ्ख्यमनुदेशसमानम् is obviously simpler, much simpler than deciding antaratamya. You just see there is 4 and 4, it's a 1:1 adesha. So it is much simpler than thinking, okay, which is the sthani for ikara, which is the sthani for yakara, do they match and so on. So why not do it that way? Is an obvious question that would arise. So that is the point that Dikshita addresses in Ikoyanati. Katham sthanya adesha nirnayaha, yathasankhyenava, स्थान अन्तरतम्याद्वा इति प्रश्नः यथासङ्ख्येन निर्वाहः न भवति किमर्थं प्रत्याहारेषु तद्वाच्यवाच्ये निरूढा लक्षण प्रत्याहारेण येन केनचित् प्रत्याहारेण के वर्णाः दृश्यन्ते माहेश्वरसूत्रेषु ये वर्णाः ते एव दृश्यन्ते तद्वाच्याः तैः माहेश्वरसूत्रस्थैः वर्णैः अनुदित्थवर्णस्य चाप्रत्ययः इति सवर्णग्राहकत्वेन तस्य दीर्घप्लुतादयः अपि गृह्यन्ते तद्वाच्यवाच्याः सर्वदा प्रत्याहारैः तद्वाच्यवाच्याः एव गृह्यन्ते इति सिद्धान्तः प्रत्याहार विल् नेवर् कन्वे ओन्ली द लेटर्स् आफ् द माहेश्वरसूत्र इट् विल् कन्वे दोस् लेटर्स् अलाङ्ग् वित् देर् सवर्णास् विच् इस् तद्वाच्यवाच्य कथं ज्ञायते दीर्घाजसि च इति ज्ञापकात् ल्वादिभ्यः इति निर्देशाच्च दीर्घात् जसि इति च परे सवर्णदीर्घः निषिध्यते यदि अकस्सवर्णे दीर्घः इत्यतः अकः इति अनुवर्त्य प्रथमयोः पूर्वसवर्णः इत्यनेन पूर्वसवर्णदीर्घः विधीयते अकः प्रथमाद्वितीययोः अचिपरे पूर्वसवर्णदीर्घः यदि अक् इति प्रत्याहारेण दीर्घः न गृह्यते तर्हि दीर्घाजसि च इत्यत्र दीर्घग्रहणं व्यर्थम् व्यर्थं सज्ञापयति प्रत्याहारेण तद्वाच्यवाच्याः गृह्यन्ते इति एकं ज्ञापकम् ल्वादिभ्यः इति निर्देशात् लू आदिभ्यः इति स्थिते पाणिनिः यणादेशं करोति ल्वादिभ्यः दीर्घस्य ऊकारस्य स्थाने यणादेशं करोति तेन किं ज्ञायते इको यणचि इकः स्थाने विधीयमानः यण् दीर्घस्यापि भवति तेन प्रत्याहारेश तद्वाच्यवाच्ये निरूढा लक्षण तथा सति किं भवति इक्शब्देन तेन इक्शब्देन षट्षष्टिः गृह्यन्ते 66 फ्रम् इक् यु हाव् इ उ ऋ ल इवर्णस्य अष्टादशभेदाः उवर्णस्य अष्टादशभेदाः ऋल् वर्णयोः आहत्य त्रिंशत् सो ऋकार 18 प्लस् ऋकार 12 टुगेदर् 30 आफ् ऋकार सो 30 प्लस् 18 प्लस् 18 66 इक् शब्देन षट्षष्टिः गृह्यन्ते यण् शब्देन सप्त यवलानाम् अनुनासिकप्रभेदः अपि अस्ति इत्यतः यण् वर्णाः चत्वारः ततः अनुनासिकाः यवलाः त्रयः आहत्य सप्त एवं सति यथासङ्ख्यं नास्ति सो सिन्स् इट् इस् 66 स्थानीस् अण्ड् 7 आदेशास् आब्वियस्लि देर् इस् नो यथासङ्ख्या यथासङ्ख्या केन् हेपन् ओन्ली इफ् देर् आर् ईक्वल् नम्बर्स् आफ् स्थानी अण्ड् आदेश भाव्यमानत्वेन सवर्ण अग्राहकत्वेऽपि अत्र प्रश्नः इक्शब्देन षट्षष्टिः इति अस्तु यण्शब्देन सप्तानां ग्रहणं कथम् भाव्यमानेन सवर्णानां ग्रहणं न इत्यस्ति भाव्यमानः नाम विधीयमानः यः तत्र सवर्णग्राहकत्वं नास्ति इति परिभाषा भाव्यमानत्वेन सवर्ण अग्राहकत्वे अपि गुणानाम् अभेदकत्वेन अभेदका गुणाः इति पक्षः गुणाः नाम बाह्यप्रयत्नाः अनुनासिकाननुनासिकाः अल्पप्राणमहाप्राणाः तथा स्वरित क्षम्यताम् संवारनादघोषादयः बाह्यप्रयत्नाः गुणाः ते अभेदकाः इति पक्षः अतः अनुनासिक अननुनासिकयोः मध्ये भेदः नास्ति इति पक्षे अनुनासिकानामपि अवलानां ग्रहणात् अतो नास्ति यथासङ्ख्यम् यथासङ्ख्यत्वं नास्ति प्रश्नः अस्ति वा योगेशमहोदय हरि ओम् न श्रूयते न श्रूयते प्रश्नः अस्ति चेत् कृपया विलिख्य प्रेष्यताम् अस्ति समस्या अस्य अतः यथासङ्ख्यम् नास्ति न च लक्ष्यार्थबोधात् पूर्वभाविनम् शक्यार्थबोधमादाय यथासङ्ख्यमस्तु इति वाच्यम् तत्र किमस्ति प्रत्याहारेषु तद्वाच्यवाच्ये लक्षण वस्तुतः माहेश्वरसूत्रस्थाः तद्वाच्याः एव गृह्यन्ते किन्तु लक्षणया अर्थात् तत्सम्बद्धत्वात् तत्सवर्णाः अपि गृह्यन्ते इति लक्षण लक्ष्यार्थबोधात् पूर्वभाविनम् शक्यार्थबोधमादाय देर् आर् टु स्टेप्स् देर् इन् फर्स्ट् By any Pratyahara, we take only the Varnas in the Maheshwara Sutra, which are directly given by the Pratyahara. In the second step, we take the Savarnas of those. So, why don't we stop at first step, do Yatha Sankhya, and then come down to the second step as a question. Lakshyartha Bodhat Purvabhavinam Shakyartha Bodham Adaya Yatha Sankhyamastu Iti Navachyam. Evam Api. So, even if we do that, तृतीयचतुर्थाभ्याम् ऋकार लकाराभ्याम् प्रत्येकम् त्रिंशदुपस्थितौ लवर्णानाम् रेफादेशस्य ऋवर्णानाम् लादेशस्य च प्रसङ्गात् इफ् वी डू दट् से वी टेक् द फर्स्ट् स्टेप् देर् आर् फोर् इक् लेटर्स् फोर् यन् लेटर्स् सो वी डू यथा सङ्ख्या वि से फार् इकार इट् इस् य फार् उकार इट् इस् व फार् ऋ इट् इस् रेफा एण्ड् फार् ल इट् इस् लकार देन् वि टेक् सवर्णस् दट् इस् फार् आल् सवर्णस् आफ् इकार Yakara is the Adesha. Fine. For all Savarnas of Ukara, Vakara is the Adesha. Fine. For all Savarnas of Rukara, Repha is the Adesha. Idaniyam Rulu Varnayoho Parasparam Savaranyam Asti Ityataha, Rukaras Savarnayana, Rukaras Savarnaha Ityanena, Lukara Opi Grishyate. Even Lukara is taken. Together all 30 are Savarnas of Rukara. So then, for all these, Repha will be the Adesha. ऋकारस्य ये सवर्णाः सर्वेषामपि रेफादेशस्य प्रसङ्गः पुनः लकारस्य सवर्णानां सर्वेषां लादेशस्य प्रसङ्गः इति उक्तत्वात् तत्रापि त्रिंशतः अपि लादेशस्य प्रसङ्गः सो वाट् इन् एफेक्ट् इस् फार् बोत् ऋकार एण्ड् लकार वि हेव् एन् आप्शन् ईदर् रेफा आर् लकार विल् बि द आदेश विच् इस् नाट् डिसैर्ड् एवमपि तृतीयचतुर्थाभ्यां ऋकार लकाराभ्यां प्रत्येकं त्रिंशदुपस्थितौ लवर्णानां रेफादेशस्य ऋवर्णानां लादेशस्य च प्रसङ्गात् तस्मादिह स्थानेन्तरतमः इति सूत्रेणैव इष्टसिद्धिः अतः कथञ्चिदपि स्थानतः अन्तर्यादेव स्थान्यादेशनिर्णयः कर्तव्यः यथासङ्ख्येन निर्वाहः न भवति इत्यभिप्रेत्याः स्थानत अन्तर्यादिति अत एव कौमुद्यां स्पष्टमुक्तं स्थानतः अन्तर्याद् ईकारस्य यकारः So if you have any questions regarding Eco Energy, please come forth. There is one by Yogesh Pandya. He asks, Abhedakaha namakorthaha. Bhedam na kalpayanti. That is, they do not say if there is an anunasika variety of a letter and an anunasika variety, they are not treated as different. They are treated as the same. That is, even without Savarnagrahana. Savarnagrahanam vinapi, अनुनासिक अननुनासिकयोर्मध्ये भेदः नास्ति यः अनुनासिकः अकारः अस्ति निरनुनासिकश्च अस्ति यद्यपि सवर्णग्रहणं न स्यात् अत एव इदानीं तपरस्तत्कालस्य इदानीम् अतः दीर्घः इत्युक्ते अतः नाम ह्रस्वाकारस्य इत्यत्र सर्वेषाम् उदात्तानुदात्तस्वरितानां तथैव अनुनासिक निरनुनासिकानां ग्रहणं भवत्येव सर्वदा सवर्णग्रहणं नाम भिन्नकालानां ग्रहणे एव तात्पर्यम् समानकालानां तु सवर्णग्रहणं विना अपि अभेदतागुणाः इत्यनेनैव ग्रहणं भवति इत्यर्थः Whenever I say a, simple a, it means even if there is no सवर्णग्रहण even without going to another सवर्णस्य चाप्रत्ययः and a can take its own those six of the ह्रस्वाकार the उदात्त अनुदात्त स्वरितास् एण्ड् अनुनासिका निरनुनासिकास् बिकास् अगेन् अभेदकाः गुणाः इति एकः पक्षः भेदकाः गुणाः इति अपरः पक्षः अस्ति किन्तु प्रायणसिद्धान्ते अभेदकाः गुणाः इत्येव प्रायेण स्वीक्रियते एनी अदर् क्वश्चन्स् कोर्णसि the next, Anachitya. Paul?
Okay. Anachitya, am I heard well?
Yeah, yeah, you are.
Okay. Ve, ve, ti. You're all nastika. Iti sutra. Va grahanam anubartate iti. Na jalao. Iti sutre kayataha. Evamcha sarvatra shakalyasya iti sutram. Sat prapancha bhutam. Pujar purvottara sutra dvayam cha naram bha narambha
narambhaniyam
narambhani narambhaniya iti bhavah
na arambhaniyam
dirsha na
arambhaniyam
iti bhavah arambhaniyam bhavah yatru dirghat acharyan nam iti sutre acharya grahanam pujar sam iti adhipretya vak iti vashya udahrate vikalpe upapat tichin dar sam kalpyante
klishyante
san klishyante san mudhaiva pujar tatayaha pram anikar
pramanikaihi anukte hai
pramanikaihi anuktaihi tri prabrastishu iti sutre shakatayan shakatayan agrahana yapi tada tata patehe na cheshta patihi san karteti visakara visakara apara
visakara para
hara visakara para kayasa Harajatta Adi Grantha Virodha Svagrantha Virodha Cha Ataha Eva Pratishakya Bhashyeti Avaritam Kriti Mantre Sakarasya Vitva vikalpa udahritaha madhavena cha aste yatra aste ityatra sakarasya vitva vikalpa udaha evam cha Vatramsha ityatra sakarasya vitvam asidji
asat iti uktihi
eva asati iti dik.
Thank you. Anasitya. That is fine. Anachicha. Kim vidhiyate anachicha ittenena? Atah parasya raha dvevastaha natochi. Iti sutrarthaha. Yarvaranasya dvittvam vidhiyate. Dvevastaha vikalpena vidhiyate. Yarona nasikena nasiko va ityataha va iti anuvartya. Vikalpena dvittvam iti kayataha vadati. ओके दिस इज फाइन एवं सति सूत्रत्रयम् अस्ति द्वित्व प्रकरणे दीर्घादाचार्याणां त्रिप्रभृतिषु शाकटायनस्य सर्वत्र शाकल्यस्य दीर्घादाचार्याणाम् इति द्वित्वनिषेधसूत्राणि त्रीणि द्वित्वनिषेधसूत्राणि सन्ति त्रिप्रभृतिषु शाकटायनस्य त्र्यादिषु वर्णेषु संयुक्तेषु द्वित्वं न इति एकम् सर्वत्र शाकल्यस्य कुत्रापि द्वित्वं न भवति इति एकम् दीर्घात् परस्य द्वित्वं न भवति इति एकम् त्रीणि द्वित्वनिषेधसूत्राणि सन्ति तेषां किं प्रयोजनम् इति प्रश्नः तत्र सूत्रत्रयेपि शाकल्यस्य शाकटायनस्य आचार्याणाम् इति पूर्ववैयाकरणानां ग्रहणं करोति पाणिनिः हि हेज़् मेन्शन्ड् अर्लियर् ग्रामेरियन्स् शाकटायन शाकल्य एण्ड् वै आचार्याणां हि रेफर्स् टु अर्लियर् ग्रामेरियन्स् इन् जनरल् यत्र यत्र पाणिनिः पूर्वाचार्याणां स्मरणं करोति तत्र अर्थद्वयस्य सम्भाव्यता अस्ति देर् आर् टु आप्शन्स् देर् ईदर् हि इस् कोटिङ्ग् देर् नेम्स् जस्ट् फार् रेस्पेक्ट् okay kevalam pooja arthata just for respect and she also endorses their views so in that case pani also endorses the view of the earlier grammarian he is naming them just to give credit maybe that he was the person who put forth the concept or something and the second one is to say according to that acharya this is what happens according to me it is different which means there is a vikalpa there is an option it is optional In the first case, if Panini also holds the same view, then it is not optional. It is compulsory karya and the name of that earlier grammarian is just to show respect. In the second case, it is to show a difference in view. According to the view of the earlier acharya, it is something different and according to Panini, it is something different. So, in the second case, it will result in a vikalpa. Now, what is it in this case is a question. So, is it that Panini takes up the names of Shakatayana, Shakalya and other acharyas just for puja arthata. Kevalam puja artham va. Puja artham chet, kaha arthaha, dhritva nishedhaha, nityaha. That is compulsorily, that is dhritva nishedha. Triprabhritishu, triyadishu varaneshu, sanyukteshu, kutrapi dhritvam nasyat. Sarvatra, kutrapi dhritvam na bhavati ityukte, I mean, that obviously cannot be a compulsory thing. केवलं पूजार्थम् इत्युक्ते सर्वत्र द्वित्वं न भवति इति पाणिनेः मतम् इति चेत् द्वित्वविधायकानि सूत्राणि अनपेक्षितानि एण्ड् दीर्घादाचार्याणां दीर्घात् परस्य द्वित्वं न भवति इत्यपि न साधु वै हि शोस् एक्साम्पल्स् वेर् संस्कर्ता त्रिसकारपरकैयट हरदत्तादि ग्रन्थविरोधात् सो इन् संस्कर्त डुङ्ग् देर् सो देर् इस् अ केस् वेर् There are two sakaras and there is a kakara. So there, one of the sakaras is doubled to give a form with three sakaras. Now, initially there are three varnas in sanyoga. Sakara, sakara, kakara naam, trayanam sanyoga ha vartate. Tatra dhritvam krutva, chaturthaha varnaha. Tritiyaha sakaraha naama chaturthaha sanyukta varnaha tatra yojyate. Kayata, haradatta, ityadi sarvaihi. So that will be against it. If you are saying there is compulsorily dhritva nishedha, when there are more than three letters in conjunction. So, that goes against the Trisakara form in Samskarta, which has been accepted by Kayata, Haradatta and everybody. Right. That is first case. Similarly, Atva Ratham, in a Pratishakya, Atva, A iti Dirghad Parasya, Takarasya Dvitva Vikalp, Dvitvam Udaharatam Asti. So, there is an optional Dvitva for the Takara. If Dirghad Acharyana Mityatra Acharya Grahanam Puja Artham, तर्हि नित्यं दीर्घात् परस्य निषेधः स्यात् तत् नेष्यते माधवेन च आस्ते इत्यत्र सकारस्य द्वित्वविकल्पः उक्तः सो माधवः आस्ते आकारात् परस्य सकारस्य द्वित्वम् उच्यते माधवेन तदपि न स्यात् सो द फर्स्ट् केस् अस्यूमिङ्ग् दट् पाणिनी हस् टेकन् अप् द नेम्स् आफ् द आचार्य जस्ट् फार् रेस्पेक्ट् एण्ड् ही आल्सो एण्डोर्सेस् देयर् व्यूस् विल् नाट् होल्ड् Because Lakshya examples go against it. There are numerous examples where we do find Dvitva even when there are more than three letters in conjunction and even for letters which follow a Dirgha. So the first view is not there. The second view is to say that this is for a Vikalpa. That is according to Shakalya, there is no Dvitva anywhere. Which means according to Panini, there is Dvitva and it results in Vitva being optional everywhere. Dvipraprutishu, again, if more than three letters in conjunction, there is no Dvitva according to Shakatayana. According to Panini, there is Dvitva, which means Dvitva is Vikalpa. The same is with Tirthadacharya, which is to say that all Dvitva is Vikalpa. Now, if Anasicha Ityatraiva Yadi Vadrahanam Anuvartate, Tarhi Dvitvam Vikalpenaiva Bhavati. Dvitva is anyway optional. Tathasati Etat Sutradrayam, Sutratrayam Na Kartavyam. So, these three sutras do not have any purpose. Because there, the objective of the sutras, which is to bring about an optional Nishedha in Dvitva, is anyway achieved by Vagrahana in Anasicha. Anasicha iti Dvitvam Vikalpenaiva Vidhiyate Ityataha, Sarvamapi Dvitvam Vikalpenaiva iti Chet, Etat Sutratrayam Navashyakam iti Dikshitanam Siddhantaha. He says that these two three sutras are not required. Dveva iti Yaronunasikaha iti sutrat Vagrahanam Anuvartate iti Madhyalau iti sutre kayyataha. Evam cha Sarvatra Shakalyasya iti sutram Tat Prapanchabhutam Purvottara Sutradvayam. See, by saying Sarvatra Shakalyasya, so it will anyway cover all the other cases. Everywhere according to Shakalya there is no Dvitva. Which means whether there are three or more letters in conjunction or whether it follows a dirgha, all those cases are covered. That is why he says tat prapanchabhutam. Prapanchabhutam means that which is already covered by that. Purvottara sutra dvayanche narambhaniyam iti bhavaha. Yattu dirghad acharyanam iti sutre, acharya grahanam pujartham iti abhipretya. Pujartham ityukte dvitva nishedha nityaha ityarthaha. Tathasati vak iti bhashyodahrate vikalpe. Vak iti akarat dirghat parasya kakarasya dvitvam bhashya udahratam. Bhashyodahrate vikalpe upapatti sintartham kishyante san mudhaiva. Pujarthatayaha pramanikaihi anuktehe. Tiprabhritishu iti shutrutve shakatayana grahanasyapi tathapattehe. Nata ishtapattihi samskarta iti trisakara para kayyata haradattadi granthavirodhat svagranthavirodhatcha. Atayeva pratishakya bhashyapi atvaratham iti mantre akarasya dvitvavikalpah udahratah. Madhavena cha aste ityatra sakarasya dvitvavikalpah uktah. Evamcha dhatramshaha ityatra takarasya dvitvam asat ityuktireva asati. So his target is there. Dhatramshaha, dhatru amshaha, enadeshe krate dhatramshaha. Tatra akarat parasya takarasya anasicha iti dvitve dhatramshaha iti ekam rupam iti kaumudyam likhyate. Purvena arthat Ramachandra sena prakriya kaumudyam tam nirakriyate. Dirghad acharyanam iti nityameva dvitva nishedhaha atahatra takarasya dvitvam na bhavati iti tasya matam. Takarasya dvitvam asat ityuktireva asati. So that argument itself does not hold good, is what he tries to demonstrate. Any questions? Yogesh Mohanaya. I think you have muted yourself. Maybe you should unmute yourself. Yes, I can still not hear you. Maybe your microphone is not working. So maybe you should just try to log out and log in again. Sometimes that will work with audio. We have a question. If you have a question, you can type it out. If you are volunteering to read, then you can. Maybe you should log out and log in so that you can. Maybe your audio will work. Yes, Paul, you have a question?
So if Dikshita has decided that these three sutras are not necessary, then what's the end result on what he's thinking of why they're there?
Because they're not required. That's it, simple. It is, I mean, just not required. Funny he did it. I mean, it was a mistake. That's what he thinks.
Oh, he's saying that funny he made a mistake.
Yeah.
Okay.
Narambhaniyam. That is very clear.
Huh?
अत्र प्रश्नः मुधैव इति मुधा नाम व्यर्थम् इत्यर्थः तदुपपत्तिचिन्तार्थं क्लिश्यन्ते So, once they have decided that Acharya Grahanam Pujartham iti nishchite, Vak iti udaharanam katham sangachyate. Yadi dirghat parasya ritva nishedhaha, tarhi Vak iti bhashyodaharate vikalpe, upapatti chintartham, katham upapadyate. You cannot simply dismiss a bhashyakara's udaharana as wrong. So how is it that bhashyakara gave Vak as an udaharana? Iti krishyante. So they take some complicated circuitous route to substantiate that prayoga of Bhashyakara, that is mudha, that is a waste of time. Because anyway, that is not pujartha and it is not a nitya nishedha. Vikalpenaiva nishedha, ataha vakiti dirgha, vakiti dvipam siddhyati. Ataha tat klishyante, kleshaha mudha, vyartham. Ityarthaha. So, the next question, there is one more question. Madhavaha kaha. Madhavaha dhatu vrittehe rachayita. There are many dhatu vrittis, you know. I mean, vritti, basically, vritti granthas are those which give the meaning of sutras. Na name kashika vrittihi. Ityadayaha ashtadhyayaha vrittayaha. Tathaiva dhatu vrittayaha santi. Dhatu rupanam vishaye chartya prachalati. Datta bahu prasiddha dhatu vrittihi, madhaviya dhatu vritti. There are many different dhatu vrittis again. Different people have discussed about the dhatus and their rupas, their meanings and so on. One of the most famous is the dhatavritti by Madhava. Madhava of the Sayana Madhava, those, that duo. Okay. So that is one, he is one of the most, most venerated dhatavrittikaras. Most people, if they are talking about dhatus, they will always refer to dhatavritti. He should always refer to dhatavritti. So here he is contesting one such view of Madhava. Any other questions? Mudha iti avyayam va. Satyam. Mudha iti avyayam. Set up open.
So, I was thinking, even if Yadavana Naske Anunaskya Yadi Va Anuvartate Hiyati. Adapi, nothing wrong in saying Sarvatra Sakalyasya. It can still mean, for example, you see Sakalyasya grammar Lanka, you would have said that Nisheta. So it is only participating what is already indicated by Va. I don't think they are not, in any case, they are not contradictory.
They are not contradictory.
Redundancy and all case in our mind. Exactly. To make it all very prapancham and everything clear.
Exactly.
You can always image, I think it's not such a big objection.
It's not a big objection at all. I mean, see, it's very clear when he is saying it's this. But if you look at why Vijaya does it, I mean, what it happened over the time is that Alpaksharatva of the Sutra has become the prime, of prime importance. When we look at the Vyakarana tradition, as people go on, they have tried to find out the way of, removing everything that was redundant in Paninian system. For Panini, it might have been quite natural. He is stating, it might even be stating that in other cases, Dvitva is naturally found, whereas if it is, say, in among followers of Shakalya, they don't prefer to use Dvitva. Or after Dirgha might not be used very frequently. So, for Panini, it might have been natural. But strictly, when you are looking from the point of view of Ashtadhyayi, is it required? Okay. So, it's obviously Panini, it's not, if Dikshita is not required, it is not that Panini, it was an oversight of Panini or something. Panini sometimes states things where we say it as Pashtartha or, Mandamatya Anugrahanartha and all that, Anugrahartha, to, make things clear for dullards and so on. Where everywhere, Panini's intention is to just state things clearly. Is it strictly necessary or essential for those sutras to be? The question here is, if those sutras are not there, will it make any difference to how we interpret the Ashtadhyayi, or more importantly, will it make any difference to the Lakshya or Prayoga? Right? So, will it make a difference to the Prayoga? No, it will not. That is all it means. when we say the sutra is not essential, what it means that even in the absence of these three sutras, there will not be any difference in prayoga. Since dvitva is optional everywhere, even following dirgha, there will be a form without dvitva, there will be one form with it. So that will not make a difference to the prayoga. So why did Panini do it is a question. So as you said, one thing is just he is stating different schools. I mean, if you look at Panini's time, it is not a case where Panini is the only grammarian or his is the only authority. There are people who follow different authorities. So maybe he is just stating, okay, this is a view of their school. That is, I am aware of it. Maybe he is just trying to say that I know that there are different thoughts where, say, according to Shakatayana, there is no dvitva at all in one particular case. According to Shakalya, there is no dvitva anywhere, whatever. But according to me, it is optional dvitva everywhere. That is all. It might be a simple statement of Panini. So why cannot, so there is a question, why exactly it cannot be Pujartha? What we mean to say when it is Pujartha is that Panini also endorses that view. If you are saying the taking up the name of a grammarian is Pujartham iti adi ucchate, tarhi Paninerapi mate tat tadeva iti arthaha. So tattu na, it is not that Panini also says that there is no dvitva anywhere or there is no dvitva. He does not endorse their view. He neither endorses them nor opposes them. It is simply a statement. Okay. It is simply, I mean, according to how it stands, it is simply Panini's statement that these are the different views regarding dvitva. Okay. Which is fine. I mean, Panini has every right to state it. But for our practical purposes, if you look at the prayoga, even without those statements, it will not make a difference to us. Okay. So, my question, why did not Dikshita say so well? That we will have to debate. Why Dikshita said? Na arambhaniyam, he says, so not necessary. Okay. So that is how he views it. He views it strictly from the utilitarian point of view. Is this sutra essential for Ashtadhyayi or not? He says it's not. Over. Okay. So any other questions? So anybody who wants to read? Next, volunteers for Sanivada Deshwanal Vidhav. Okay, maybe. Okay. Shut up, open. Okay.
Yes, Sanivada Deshwanal Vidhav. Sanivada Deshwanal Vidhav. Tavatu, Anga, Krista, Sajjita, Avyaya, Sup, Ting, Pada, Adeshaha, Iti, Prache, Raja, Uttam. Kintate, Pariganam, Udaharana Matram cha.
Matram.
Na Adyaha. Udaharana Matram va. Na Adyaha. Sit.
Sit. Ksa.
Sit. Sa, chang, ang, adinam, snad,
snad,
adesasya, snad, adesasya, sanacha, ha, cha, asangraha, apatate, na, antiha, avyasya, Anga Padabhyam Pritak Rahana
Vayatya
Vayatya Pritak Rahana Vayatya Prastut Prastutya Iti Vrittikara Uttam Tad Udaharamati Mandam Tva Matrasya Anavyayatvate Kritvena Siddhatvata cha iti Ashaya
Ashayena
Aga Ashayena Aga Adesaha iti Anal Vidau iti kim Tena Tasmaha dasya dasmuscha vidau abhu. Tatra ala vidau yata yugaraskena atra sakarasya sthanivatvena visakavat akta svam asritya agbevayedi iti natvam vaptam. Alaha parasya jyauhu pantaha alinyabhyadi lopo na alo vidau yukamaha vali lopo na ali vidau yajehe taha ka istaha asicha iti uttam na alcha isa stani avayava eva drishyate tena ramaya ityadau supicha iti dirghaha siddhaha tadvidavati yajnaditvam asritam yajnaditvam asritam yaincha adesha avayavaha natu stani avayavaha iti tat yatat sakalam abhipretya aha natu stani alasraya iti asrayanam chaita yata katanjit natu pradhanyena eva iti
agraha
agrahaka tena prapakya ityatra svaladi lakshana yang na bhavati.
Okay. Yeah, thank you. Sthanivadadesho nalvidhau. Adesha sthanivatsyat. Kaha adesha? पुराचाम ग्रंथे अथवा कौमुद्यम के उक्तिते धातु अंग कृत तद्धित अव्यय सुक्ति पदादेशः एतेषाम आदेशाः स्थानिवत् भवन्ति इति उक्तम् किं तत् परिगणनम् उदाहरण मात्रं वा. इज इट जस्ट एन एग्जांपल और जस्ट अ और इज इट अ डिफाइंड लिस्ट दैट ओनली द आदेशस फॉर दीस विल बी स्थानिवत् और इज इट जस्ट अ लिस्ट ऑफ एग्जांपल्स न आद्यः इट कैन नॉट बी अ डिफाइंड लिस्ट वाई. Among these, dhatu, anga, krit, tadhita, etc., we cannot cover these. Sich, ksa, chang, angarina. Chli, chli lungi, iti chli, pratyam vidhaya. Tatra, sichadaya, tasya, adeshatvena vidhiyante. Chleh adeshatvena, chleh sich, ksa, chang, ang, ityadaya. Ete, nagrihyante tatra. Because they are not covered by any of those. Again, shnadeshasya, shanachahacha. And also, the shanach which replaces shna. So all these will not be covered. Therefore, it is not a defined list. Na antyaha. It can also not be just an example. Why? Avyayasya anga padabhyam prithak grahana vayyathyat. It says avyaya. Anga, pada and avyaya. And avyaya will be always be an anga. Because on an avyaya, you add the supratyaya. And once the supratyaya is deleted, pratyaya lakshanena padam api bhavati. So, it can either be covered under Anga or under Pada. So, you need not have an Avyaya separately. And also, there is no example for Avyaya. Prastutya iti udaharanam diyate. Ktva pratyasya sthane lyabadesham krishva prastutya iti. Tattu tad udaharanam avi mandam. That example is also not good. Why? Ktva matrasya anavyaya. Kvaat. So, the adesha there is for the ktva pratyaya. Okay. Ktva is replaced by lyap. Now, ktva, only ktva is not an avyaya. Ktvanta is an avyaya, lyabanta is an avyaya. Ktva is not an avyaya. So, it is not an adesha for an avyaya. And secondly, krutvena siddhatvacha. Ktva is a krut pratyaya. Ataha krutadeshaha sthanivat ityanenaiva sthanivadbhavaha siddhyati. Tathasati avyaya grahanam vyartham. So, even if it is just seen as a list of examples, it is not a good list. Therefore, it is not required to say that. Adeshaha sthanivatsyan. Sarvopi adeshaha. Adesha matram sthanivat bhavati. अनल्विधौ इत्यस्ति. अनल्विधौ इति किं? तेन तस्मात् तस्य तस्मिंश्च विधौ माभूत्. अल् अनल्विधिः इत्यस्ति. अल्विधिः नाम अल्विधिः इति समासः अस्ति. देर् इस् अ समस्त कम्पौण्ड् वर्ड् देर् विच् केन् बि स्प्लिट् इन् फोर् वेस्. अलाविधिः, अलः परस्य विधिः, अलः विधिः, अलिविधिः. सो इन् आल् दीस् फोर् केसेस् देर् इस् स्थानिवद्भाव निषेध. इफ् अ कार्य इस् अलाविधि, इफ् द कार्य विच् वि इण्टेण्ड् टु डू अलाविधि डिपेण्ड्स् आन् अ सिङ्गल् लेटर् एस् सेपरेटिङ्ग् इट् ओके. एण्ड् अलः परस्य विधिः, इफ् द कार्य डिपेण्ड्स् आन् इट् समथिङ्ग् फालोयिङ्ग् अ सिङ्गल् लेटर्. अलः स्थाने विधिः, इफ् इट् इस् अ सब्स्टिट्यूशन् इन् प्लेस् आफ् अ सिङ्गल् लेटर्. अलिपरे विधिः, आर् इफ् इट् इस् अ विधि वेन् फालोड् बै अ सिङ्गल् लेटर् अल्. सो इन् आल् दीस् केसेस् दीस् आर् ट्रीटेड् एस् अल् विधि. एण्ड् इन् आल् दीस् केसेस् देर् इस् स्थानिवद्भाव निषेध. अलाविधौ यथा व्युढोरस्केन, पुरस्क इत्यस्ति, तत्र सकारस्य स्थाने विसर्गः, विसर्गस्य स्थाने पुनः सकारः अस्ति. सो नौ इफ् द सकार बै स्थानिवद्भाव इस् ट्रीटेड् एस् विसर्ग, अड्व्ययेऽपि अट्कुप्वाङ्म् व्ययेऽपि इत्यत्र अट् विसर्गः अट्सु अन्तर्भवति इत्यतः नकारस्य णत्वं भवति. रेफा एण्ड् नकार वेन् दे आर् सेपरेटेड् बै अट् अटा व्यवधाने कु, कु इत्यनेन व्यवधाने, पु इत्यनेन व्यवधाने, आङ व्यवधाने, नुमा च व्यवधाने रेफाद्वरस्य नकारस्य णत्वं भवति. सो दिस् इस् अ कार्य विच् इस् अला विधि विच् डिपेण्ड्स् आन् अ सेपरेशन् आफ् अ सिङ्गल् लेटर्. ऐ मीन् देर् मैट् बी मेनी लेटर्स् बट् ईच् आफ् देम् सिङ्ग्ली इस् वाट् वी कन्सिडर्. सो इफ् सकार वैस्थानिवद्भाव इस् ट्रीटेड् एस् विसर्ग एण्ड् विसर्ग इस् एन् अट् देन् देर् वुड् हव् बीन् णत्व. अतः अलाविधौ स्थानिवद्भाव निषेधस्य उदाहरणम्. अलः परस्य द्यौः पन्थाः, दिव् इत्यस्ति, पथिन् इत्यस्ति, तत्र वकारस्य नकारस्य च आदेशः क्रियते. तस्य स्थानिवद्भावेन यदि वकारत्वं नान्तत्वं वा तर्हि हल् ज्ञाभ्यः हलः परस्य सुप्रत्ययस्य लोपः इत्यनेन लोपः स्यात्, अतः लोपः न भवति. बिकास् दिस् इस् अलः परस्य विधौ स्थानिवद्भाव निषेधः. अलः विधौ द्युकामः, दिव् इति वकारस्य स्थाने, दिव् इति वकारस्य स्थाने सत्यम् उकारादेशः कृतः. तस्य स्थानिवद्भावेन यदि वकारत्वं तर्हि लोपो व्योः इत्यनेन वकारस्य स्थाने लोपः विधीयते. अलः विधिः लोपो व्योर्वलि इति अलः विधिः, तत्र स्थानिवद्भावः नास्ति. अलिविधिः यजेः कृतः, क इष्टः, कर् इष्टः इत्यस्ति, तत्र रेफस्य हशिच इत्यनेन उत्वं, रोः कस् इष्टः इत्यस्ति, तत्र ससजुषोरुः इत्यनेन ऋत्वं विधीयते. ततः भो भगो को अपूर्वस्य योषि इत्यनेन यकारः, तस्य लोपः, तथा क इष्टः इति उपम्. तत्र इष्टः इति यदेः यजधातोः यकारस्य स्थाने सम्प्रसारणत्वेन इकारः. यदि इकारः स्थानिवद्भावेन यकाररूपं प्राप्नोति तर्हि हशि च अश्वर्णे परे उत्त्वं भवति इत्यनेन उत्त्वं स्यात्. अलि विधौ स्थानिवद्भाव निषेधः, अतः स्थानिवद्भावः नास्ति. सो इन् आल् केसेस् इन् एनी वे इट् हेपन्स् टु बी एन् अल् विधि. जनरली वै द क्वश्चन् अरैसस् इस् वेन् वि से अल् विधि वि ट्रीट् इट् एस् अलः विधिः. दट् इस् वेन् वि आर् डूयिङ्ग् अ कार्य इन् प्लेस् आफ् अल् देर् इस् स्थानिवद्भाव निषेध. So he clarifies it is not just alaha vidhihi, it can be ala vidhi, where the karya is not for an al, I mean need not be for an al, but just separation by an al. Okay. Or alah parasya vidhihi, or a karya which is not in place of an al, but when followed by an al, or when preceded by an al. So in all these cases, there is nishedha for sthanivadbhava. Sarvatra sthanivadbhava nishedha asti. किञ्च अल्चयः स्थान्यवयव एव गृह्यते. स्थान्यलाश्रयविधौ एव स्थानिवद्भाव निषेधः. ओन्ली वेन् द विधि डिपेण्ड्स् आन् एन् अल् इन् द स्थानि, स्थान्यलाश्रयविधौ एव स्थानिवद्भाव निषेधः. आदेशे विद्यमानम् अलम् आश्रित्य कार्यं कर्तुं शक्यते, यथा रामाय राम ङे प्रत्यये परे ङेर्यः इत्यनेन यादेशः यञादौ सुपि दीर्घः विधीयते सुपि च इत्यनेन यञादौ सुपि नौ दिस् कार्य सुपि च डिपेण्ड्स् आन् एन् अल् इट् डिपेण्ड्स् आन् यञ् वर्ण नौ दिस् यञ् वर्ण इस् प्रसेण्ट् इन् द आदेश आदेशे य इत्यस्मिन् यञ् वर्णः अस्ति आदेशे आदेशे विद्यमानम् अलमाश्रित्य अयं विधिः प्रवर्तते न तु स्थान्यलमाश्रित्य स्थानीभूतं सुपम् आश्रित्य प्रवर्तते इट् डस् डिपेण्ड् आन् द स्थानी बट् नाट् आन् अ सिङ्गल् अल् इन् द स्थानी इट् डिपेण्ड्स् आन् सुप्त्व सुप्त्वधर्म इन् द स्थानी विच् इस् अ समुदाय धर्म बट् इन् द आदेश इट् डस् नाट् डिपेण्ड् आन् सारी इन् द स्थानी इट् डस् नाट् डिपेण्ड् आन् अ सिङ्गल् लेटर् ओके इट् डिपेण्ड्स् आन् अ सिङ्गल् लेटर् प्रेसेण्ट् इन् द आदेश यञ् च आदेशावयवः न तु स्थान्यवयवः अतः स्थानीभूतम् अलम् यत्र आश्रित्य विधिः प्रवर्तते तत्र स्थानिवद्भावनिषेधः तदेतत् सकलम् अभिप्रेत्याः न तु स्थान्यलाश्रये इति आश्रयणञ्च इह यथा कथञ्चित् न तु प्राधान्येनैव एण्ड् इट् नीड् नाट् बी द अलाश्रयेण दट् इस् द विधि डिपेण्डिङ्ग् आन् द अल् need not be pradhana that is mainly depending on the al there in the vidhi can either be a visheshana or be a visheshya as in the case ardhadhatukasya it valadehe valadehe ardhadhatukasya it there ardhadhatuka is the pradhana visheshya valadi is a visheshana to ardhadhatuka and ardhadhatuka which begins with val will get it Now this, even though it is not pradhanyena alvidhi, it does not say valaha idagamaha, ardhadhatukasya iva idagamaha, kidrisham ardhadhatukam, valadi ardhadhatukam yadbhavati tasya idagamaha. Adaha, visheshanatvena adi ashrite api sthanivadbhava nishedhaha asti. So there are three points he makes. First thing, the alashraya can be in four ways. Alavidhi, alahparasya vidhi, alahavidhi or alvidhi. Second thing, it has to be dependent on an al in the sthani. And the third thing, it can be dependent on an al in the sthani, either as pradhana or as visheshana. So in both cases, there is sthanivadbhava. Tan nishedha aditi, sthanivadva nishedha. Any questions in sthanivadbhava? A very important sutra. And I can guarantee you that there will be one question in the test from this sutra. Okay? So, if you have any questions, you are free to ask now. Yes? Still can't hear you. I'm sorry. You have a question, you can type it out. There is a question from Paul. Could you explain the visheshana part again? See, when you are saying alvidhi, okay, when you are saying, say, something like, let's take an example here. Lopo vyorvali. Dyukamaha ityasya. Alaha vidhau dyukamaha. Diva ityasya sthane. Vakarasya sthane ukara desha hasataha. Tasya sthani madhvavena vakare. Lopo vyorvali ityanena valopaha syat. If we take sthanivadbhava here, there will be valopo by lopo vyorvali and there is nishedha. Now, lopo vyorvali ityanena kuvachyate, vyoho vakarasya yakarasya cha lopaha. So, principally, that val is pradhana there. I mean, vakara and yakara, vyoho eva sakshat lopaha vidhiyate. The al there is not a visheshana, it is a visheshya. Sakshat vakarasya yakarasya va lopaha vidhiyate. Idam pradhanyena alashrayanam. That is, principally it is depending on an al. The vidhi is principally for the al. Okay. But if you take something like what he says, valadehe ardhadhatutasya iti. Okay. There, it is not idagama for val. Val varanasya ardhana idagamaha nakriyate, ardhadhatutasya iva idagamaha. Valadi is stated as a visheshana to the ardhadhatuka. Ataha apradhanam. Visheshana is always apradhana. The visheshya itself is pradhana. So in both cases, whether the al is a visheshya, as in case of lopovyorvali, or where it is visheshana, as in case of ardhadhatuka siyad valadeha, in both cases, the sthanivadbhava nishedha will apply. Ashrayanam seha yatha kathanchit. Arthat visheshanatvena ali ashrite, visheshyatvena ali ashrite, ubhayathapi sthanivadbhava nishedha bhavatyeva. Any other questions? Yes, ardhadhatuka syed valadehe ityatra valaha idagamaha na vidhiyate. Ardhadhatuka syeiva idagamaha vidhiyate. Valadi lakshanaha iti nama valadihi lakshanam. Nama visheshanam atra. Valadehe ardhadhatuka. Valadi lakshanaha is where valadi is one of the conditions for the idagama. Ardhadhatuka syeiva idagamaha vidhiyate. Yaha valadi lakshanaha. Valadehe ardhadhatukasya valaditvam tatra visheshanatvena ashriyate tatra visheshyatvena valadehe valaha idagamahana valadi lakshanaha valadihi lakshanam yasya ardhadhatukasya valaditvam lakshanam asti tadrishasya ardhadhatukasya idagamah vidhiyate tatra api sthanivatva nishedha bhavati. Okay, you can move ahead. And Yogesh Mohanaya, it will be na shruyate vataha. Probably to listen. So next is Atah Parasmin Purvoidhau. Who will read this? Hema.
Hello?
Yeah, please. I can hear you.
Okay. Achat parasmin purva vidau. Achat alvidi artham iti. Tena vavrashaha. Vavrashaha cha ityatra vasya samsakaranam na.
Vavrashcha ityatra.
Oh, there's no visarga there?
No, there's no visarga.
Oh. Vavrashcha ityatra vasya samsakaranam na. Uradatvasyan sthanivatvena samprasaranataya na samprasarana iti nishedha na cha uradatvam paranimittam na iti vachyam angakshitte pratyaye pare tat vidana prag prag abhyasa vikarebhyaha angadikaraha iti paksham dushayitva asaptama samaptehe iti pakshasya eva akare siddhantitatva Pincha Purva Sutrena Tani Prayuktam अतिदिश्यते अतिदिश्यते न तु आदेश प्रयुक्तं वार्यते नायकः पावकः इत्यादौ एचोयवायवः इति आदीनाम् अप्रवृत्तिप्रसङ्गात् अनेन तु वार्यते शब्दाधिकारम् आश्रित्य भाव अभावयोः उभयोः अपि अतिदेशः अयमिति स्वीकारात् न पद्यांश इति सूत्रे यलोपदीर्घादिग्रहणम् च इह इयम् अत एव जनयति इत्यादौ न वृद्धिः स्थानिनि सत्य भवन्
सति स्थानिनि सति
सति सति भवन्ति
अभवन्त्याः
आस्त आस्तस्य
अभवन्त्याः तस्याः
अभवन्त्याः सत्याः सति अभवन्त्याः तस्याः आदेशः अपि अभावाति अभाव अतिदेशात् उक्तञ्च कामम् अतिदिश्यकं वा सच्च असच्चापि न इह भारः अस्ति इति स्यात् एतत् पूर्वस्य सावधित्वेन सन्निहितस्य एव अवधित्वम् उचितम् सन्निहितं च इह त्रयं स्थानि आदेशो निमित्तं च तत्र न तावत् तानि अवधिः तस्य आदेशेन अपहारात् न अपि आदेशानि आदेशान् आदेशनिमित्ते वैयाकरण इत्यत्र ऐकारस्य आयादेशापत्तेः इति आशङ्क्याः अतः पूर्वत्वेन दृष्टस्य इति पूर्वत्वम् उपलक्षणम् न तु विशेषणम् इति भावः एतेन अतः पूर्वत्वविज्ञानात् ऐच्छः ऐचोः सिद्धम् इति वार्तिकं व्याख्यातम्
धन्यवादः अतः परस्मिन् पूर्वविधौ अगेन् अ वेरी इम्पोर्टेण्ट् सूत्र बोत् स्थानिवत् एण्ड् अतः परस्मिन् पूर्वविधौ वेरी वेरी इम्पोर्टेण्ट् टु अण्डर्स्टाण्ड् मेनी थिङ्ग्स् फर्दर् आन् इन् व्याकरणम् सो वाट् आर् द डिफरेन्सस् बिट्वीन् अतः परस्मिन् पूर्वविधौ एण्ड् स्थानिवदादेशौ अनल्विधौ अस् इस् फर्स्ट् थिङ्ग् अतः परस्मिन् पूर्वविधौ अल्विध्यर्थम् It brings about sthanivadbhava even in case of alvidhi. So that is the first principal difference. Sthanivadadeshaha analvidhau, ayam to alvidhaveva sthanivadbhavaha. Korthaha, paranimittaha ajadeshaha sthanivatsya, sthanibhutadata purvatvena drishtasya vidhau kartavye. There are three conditions for atasprasmin purvavidhau. Paranimittaha ajadeshaha sthanibhutadata purvatvena ajadeshaha. So, adesha for an ach. अर्थानिवत् भवति. कीदृशः अजादेशः? परनिमित्तः. An ajadesha which is dependent on something which follows. Paranimittaha ajadesha sthani vatsyat. Tada sthani bhuta dachah purvatvena drishtasya vidhau kartavye. When we are trying to do a vidhi for something which preceded the sthani, the ach which was the sthani. So there are three conditions. So an example for that is vavrashcha. Vrashcha dhatuhu tatsya lit lakarah. So I'll not give the whole rupa here. We have done it. You can go back and refer. So the main point is liti dvitvam kriyate vrashcha vrashcha tatra abhyasasya samprasaranam bhavati samprasarane rephasya rukarah. You have vrashcha vrashcha. Now this rukara urat ityanena rukarasya sthane akaradeshah bhavati. So var vrashcha raparatve var vrashcha haladisheshe va vrashcha a. Now the question is vavrashcha ityatra vakarasya prathama vakarasya punaha samprasaranam bhavati va. It says liti abhyasasya ubhayesham. In lit lakara the abhyasa will get samprasarana. We have already applied it once. Vra iti sthite rephasya samprasaranam kritam rikaraha rikarasya akaradeshaha ityadi sarvam kritam. Idanim punaha vakarasya samprasaranam bhavati va iti prashnaha. సంప్రసారణం న భవతి కుతో న భవతి న సంప్రసారణే సంప్రసారణం ఇది నిషేధః. సంప్రసారణే పరే పూర్వస్య సంప్రసారణం న భవతి. వెన్ ఫాలోడ్ బై సంప్రసారణ ద ప్రిసీడింగ్ వన్ విల్ నాట్ గెట్. వేర్ ఇస్ ద సంప్రసారణ నౌ? ద సంప్రసారణ వాజ్ రుకార. ద రుకార ఇస్ నో లాంగర్ దేర్. ఇట్ హస్ బీన్ రీప్లేస్డ్ బై అకార. సో వి యూస్ స్థానివద్ భావ టు స్టేట్ దట్ ద అకార ఇస్ స్టిల్ రుకార. దట్ ఇస్ ఇట్ ఇస్ స్టిల్ సంప్రసారణ. So that is where we apply atah parasmin purvavidhau. Ajadeshaha. Ajaha rukarasya sthane adeshaha. Paranimittaha. It depends on the pratyaya. Sthani bhutadachaha purvatvena drishtasya. Now you had vra. Right? Vra ityatra. Sthani bhutaha. Vra ityatra. Vru iti krute. Sthani bhutadachaha nama rukarat. Purvastra drishtasya vakarasya samprasarane kartavye. Sthanivadbhavaha bhavati. Yadyapi alvidhihi. Na samprasarane samprasaranam iti alvidhihi. It depends on a single al, which is samprasarana. So it is an alvidhi. Still, atas parasmin purva vidhau ityanena sthanivad bhavaha bhavati. Akarasya sthanivatvena samprasaranatve. Na samprasarane samprasaranam iti nishedhaha. That is the example for atas parasmin purva vidhau. Uradattvasya sthanivatvena samprasaranataya. Na samprasarane samprasaranam iti nishedhat. Now there is a question here. Nacha uratattvam paranimittam na. In urat, the sutra which gives the akara desha for rikara, it says urat. There it does not say pratyaya pare. It just says abhyasa rikarasya akara desha. Rikara in the abhyasa will be converted to akara. So it is not paranimitta. Nacha uratattvam paranimittam na iti vachyam. Angakshippe pratyaya pare tadvidhana. It is in the angadhikara. Okay. So where is Angadhikara? The extent of Angadhikara again has been decided in the Bhashya as A Saptama Samaptehe till the end of 7th chapter. Starting from 641 till the end of 7th chapter, it is Angadhikara. Wherever there is Anga, Yasmat Pratyavidhihi Tadadi Pratyaye Angam. So an Anga is defined when followed by the Pratyaya. So urat ityatrapi pratyaye iti akshipyate. Pratyaye pare eva uradattvam. Ataha uradattvam api paranimittam eva. It happens only when there is a pratyaya following. Therefore it is paranimitta. And vavrashcha is an example for atah parasmin purvavidhau. This is sthanivadbhava in case of alvidhi. Alvidhau sthanivadbhavaha. So that is the first point of difference between sthanivadvadesha on alvidhau and atah parasmin purvavidhau. The second point is కించ పూర్వసూత్రేణ స్థాని ప్రయుక్తం అతిదిశ్యతే నతు ఆదేశ ప్రయుక్తం వార్యతే. దేర్ ఆర్ టూ కైండ్స్ ఆఫ్ అతిదేశ, వాట్ వీ కాల్ ద భావాతిదేశ అండ్ అభావాతిదేశ. భావాతిదేశ నామ స్థానిని సతి యద్ భవతి తద్ ఆదేశేపి భవతి. ఎ కార్య విచ్ హ్యాపన్ విచ్ వుడ్ హ్యాపన్ వెన్ ద స్థాని వాస్ ప్రెసెంట్ విల్ ఆల్సో హ్యాపన్ వెన్ ద ఆదేశ, ఈవెన్ ఆఫ్టర్ ద స్థాని హ్యాస్ బీన్ రిప్లేస్డ్ బై ఆదేశ. అభావాతిదేశ నామ స్థానిని సతి యత్ న భవతి తదాజేషే సత్యపి న భవతి. that which cannot happen when there is the sthani will not happen even after the adesha comes. Sthani vada adesha anal vidhau gives only bhavati desha, that is sthani prayuktam atidishyate. We can do a karya depending on a sthani dharma. Kintu natu adesha prayuktam varyate. We cannot prevent a karya depending on the adesha. For example, nayakaha pavakaha, ni dhatoho nul pratyaha, nulaha vukara vu ityasya sthane aka iti adeshaha. Ni aka, atra sthanihi sthani nama nul. Nuli sati yadbhavati vriddhi. Because nul is nist, we can have vriddhi. Sthani ni sati yadbhavati vriddhi. Adeshe satyapi bhavati. Even after you replace vu with aka, we can still have vriddhi. Nayakaha iti bhavati. Kintu sthani ni sati yan na bhavati. Nuli sati etvayavayavaha iti ayadeshaha na bhavati. Why? Because vu is not achi. It is not ach, and therefore you cannot have the etvayavayavaha applying there. If we apply abhavati desha here, nayakaha pavakaha ityadau etvayavayavaha ityasya apravrittihi. We cannot apply etvayavayavaha. Therefore, we take only bhavati desha. Sthani prayuktam bhavati, adesha prayuktam api bhavati. Adesha prayuktam na varyate. We cannot prevent that which can be done due to an adesha. But in case of atah parasmin purva vidhau, abhavati desha is also accepted. Even in vavrashcha, that is what we saw. Sthani ni sati, nama rukare sati, yad na bhavati, samprasaranam na bhavati. Adeshe satyapi, even after you do an adesha, that is akara, we still do not have samprasarana, that is abhavati desha. Anena tu varyate, shabdadhikaram ashritya, bhava bhavayohu, ubhayohu api ati desha. So it can be both bhavati desha and abhavati desha. Okay, so that is also shown by napadanta iti sutra, yalopa dirghati grahanam. In case of yalopa, dirgha, etc., it can always be abhavati desha only. And that is prevented by napadanta. Okay. Yadi abhavati desha ha nangi kriyate, tarhi yalopadi grahanam napekshate napadanta iti sutra. Hatayeva ganayati ityarau nabruddhihi. Gana iti akaranta ha dhatuhu, nich pratyayaha, atolopaha ityanena akarasya lopaha. Idanim ata upadhayaha ityanena gh iti akarasya vruddhir bhavativa iti chet, sthani vadbhavena luptam akaram ashritya, asya akarasya upadhatvam nasti ataha vruddhihi na bhavati iti nishidhyate. Sthani ni sati abhavantyaha tasyaha. Yadi sthani nama gana ityatra yadi dvitiyaha akaraha asti, tarhi gakarottarasya akarasya upadhatvam eva nasti. Ataha ata upadhayaha iti vruddhihi na bhavati. Sthanini sati abhavantyaha tasyaha nama vruddhehe adeshe api abhavati deshat. Uktanja kamam atidishyatam va satcha asatcha. Bhavaha api atidishyatam, abhavo api atidishyatam, neha bharosti iti bhashyakaraha vadati. So that is the second key difference between sthanivada adesho analvidhau and achaprasmin puruvidhau. The first that it is alvidhi, the second that it also accepts abhavati desha. And then there is one more point here. Purva vidhau ityuchyate kasmat purvasya vidhau. It does not say kasmat purvasya. Purva is before what? Sannihitante ihatrayam. I mean, in the context there are only three things that are present. Sthani adesha nimittam. It can either be before the sthani, before the adesha, or preceding the nimitta. Tatra natavat sthani avadhihi tasya adeshena apaharat. The sthani has been lost, that is, it has been replaced by adesha. Ataha sthani naha purvasya vidhau iti vaktum na shakyate. Napi adesha nimitte. And you cannot take either adesha or nimitta. Why? Vayyakaranaha ityatra aikarasya ayadesha patte hai. If we do that, vayyakaranaha. Vi a karana ityasti. There is an pratyaya. Vi a iti yanadeshe vyakaranam iti bhavati. Tatra aich iti agamaha kriyate. Okay, there is an aich agama which comes there, which becomes vu yakarana iti sthite, vai yakarana iti bhavati. Atra यदि व्याकरण इत्यत्र वि आकरण इति स्थिते यणादेशः कृतः द ई हैज बीन रिप्लेस्ड बाय य नाउ वी हैव टू प्रिवेंट स्थानिवद् भावः हियर यदि स्थानिवद् भावः भवति तर्हि ऐकारस्य आयादेशः भवति स्थानिवद् भाव निषेधार्थं अतः परस्मिन् पूर्वविधौ इति अंगीक्रियते तत्र आदेशात् पूर्वस्य विधिः अपि न ऐकार इज नॉट इट इज प्रीसीडिंग द आदेश इट इज आल्सो प्रीसीडिंग द निमित्त but it is not preceding the sthani sthani ni sati when there was ikara there was no aikara atah sthani na purvatvam nasti adesha nimitta abhyam purvatvam asti tatha sati atra yadi sthani vad bhavah bhavati tarhi ayadeshah syat okay. so to prevent application of atah purvasmin purva vidhau here we say purvatvena drishtasya sthani bhutad atah purvatvena drishtasya that which was seen preceding the ach which was sthani even though the sthani is not present now when it was there something which was preceding that if that is getting a karya now then only we have sthani vadbhava sthani bhuta ratah purvatvena drishtasya yadi karyam tarhi tatraiva sthani vadbhavah atah parasmin purva vidhau ityanena vayyakaranah ityatra sthani nama ikarah vi akarana ಇಕಾರಸ್ಯ ಸತ್ವೇ ಐಕಾರ ನಾಸ್ತಿ ಐಕಾರ ಹಸ್ ನಾಟ್ ಎಟ್ ಅರೈವ್ಡ್ ಅತಃ ಸ್ಥಾನಿಭೂತಾದತಃ ಪೂರ್ವತ್ವಂ ನಾಸ್ತಿ ಇತ್ಯತಃ ಅತ್ರ ಸ್ಥಾನಿವದ್ಭಾವಃ ನ ಭವತಿ ತೇನ ಐಕಾರಸ್ಯ ಆಯಾದೇಶಃ ನಾಸ್ತಿ ಪೂರ್ವತ್ವಂ ಉಪಲಕ್ಷಣಂ ನತು ವಿಶೇಷಣಂ ದ ಡಿಫರೆನ್ಸ್ ಬಿಟ್ವೀನ್ ಉಪಲಕ್ಷಣ ಅಂಡ್ ವಿಶೇಷಣ ಇಸ್ ದಟ್ ವಿಶೇಷಣ ಇಸ್ ದಟ್ ವಿಚ್ ಇಸ್ ಪ್ರೆಸೆಂಟ್ ಉಪಲಕ್ಷಣ ಇಸ್ ದಟ್ ವಿಚ್ ವಾಸ್ ದೇರ್ ಸಮ್ ಟೈಮ್ ಬಟ್ ವಿಚ್ ಇಸ್ ನಾಟ್ ದೇರ್ ನೌ ಅತಃ ಪೂರ್ವಂ ಆಸೀತ್ ಪೂರ್ವಂ ಯಹ ಅಚ್ ಆಸೀತ್ ತಸ್ಮಾತ್ ಪೂರ್ವತ್ವೇನ ದೃಷ್ಟಃ ಅವಿದ್ಯಮಾನಂ ಸತ್ ವ್ಯಾವರ್ತಕಂ ವಿಶೇಷಣಂ ಪೂರ್ವತ್ವಂ ಉಪಲಕ್ಷಣಂ ನತು ವಿಶೇಷಣಮಿತಿ ಭಾವಃ ಏತೇನ ಅತಃ ಪೂರ್ವತ್ವ ವಿಜ್ಞಾನಾನೈಚೋ ಸಿದ್ಧಂ ಇತಿ ವಾರ್ತಿಕಂ ವ್ಯಾಖ್ಯಾತಂ ಸೊ ದಟ್ ಇಸ್ ಅ ವಾರ್ತಿಕಾ ಇನ್ ದ ಭಾಷ್ಯ ವಿಚ್ ಗಿವ್ಸ್ ದ ಸೇಮ್ ಸೆನ್ಸ್ ಕ್ವೆಶ್ಚನ್ ಹಿಯರ್ So when the sthani is gone, it cannot apply. I mean the sthani is always gone. Yatah parasmin purva vidhau, this is sthani nasyeva. Any case, sthani is always replaced by the adesha. Only when we have the adesha, do we think of sthani vadbhava. But the thing which we are trying to work on now, the present karyi, should have been present even when the sthani was there. It should have been present preceding the sthani even in the earlier stage when the sthani was there if there is something which is added after the sthani has been replaced by the adesha then we cannot apply sthani vadbhava by this yeah so if there is a new addition vayyakarana ityatra first we do the adesha we replace e with yan then we bring in the aikara for this aikara we cannot use sthani vadbhava So, the sthani vadbhava by atah parasmin purva vidhau can be applied only for something which existed preceding the sthani, when the sthani was there. Okay. Any other questions? The next sutra is napadanta dvirvachana. So there's nothing special, it is all examples, which I think, if you go back to the notes and look at the prakriya, you should be able to see it. There's only one point here, padanta. By padanta, we say, padasya charamavayave kartavye. That is, not when we are doing a karya for padanta. When the karya we are doing will result in a padanta, will result in something which is at the end of a pada, then there is no sthani vadbhava. So, for example, they say is vrikshav. In vrikshav, we are trying to do a lopa. Okay. So, lopa, even if there is a lopa, is done for a padanta. That is, it is deleting something which is present at the end of a pada. The lopa will not result in a padanta. Parasya charamavayave kartavya. So, it will not result in a padanta and therefore there is no sthani vadbhava nishedha. There is sthani vadbhava. But to prevent sthani vadbhava, if a karya is something which will result in a padanta, then there is no sthani vadbhava. So that's it. I think the rest you can go back and look at the prakriya and you'll know it. If you have any questions, you can ask. So in the next class, we will continue with Sanyogantasya Lopaha. Okay. Any questions now? A reminder, today is the last date for the assignments on 8th Yathartha Yuktsu. So people who are not there, I had asked for an assignment, just 2 pages or 3 maximum, on the arguments and answers in 8th Yathartha Yuktsu. Today is the last date, but as always our dates are extendable. So I'll keep extending them till I receive the assignments from you. So please send them in as soon as possible. Paul says you send it. No, I have not received it. I received the assignment from Muthulakshmi. I thought I'll kept it aside so that I'll correct all of them together. I'll look at all of them together. I have not received it from you, Paul. Yes, Yogesh, I think you're. Oh, okay. If you sent it today, then I've not looked at my mail today, so I might have got it. Yes, I'll check it. Okay. I'll check it and send you a confirmation if I have received it. Yogesh, you had something to say? I still cannot hear you, so maybe you should better type it out. So Yogesh, I think your test paper is still pending. I'll send it. I'll look at it one of these days and send it. So meanwhile, you can send in the assignment. Anything else?
Dhyayam dhyayam param brahmasmaram smaram gurur kiraha siddhanta kaumudi vyakhyam kurmah proudhamanoramam.